श्रीविष्णुरक्षास्तोत्रम्।
हे यातीतो मे यातीतो मा यातीतो ज्ञेयातीतः ज्ञेयातीतो ध्येयातीतः पायाद्विष्णुर्जायोपेतः वेदातीतो देवातीतो योगातीतो यागातीतः सर्वातीतः सर्वातीतः पायाद्विष्णुर्जायोपेतः नादातीतो बोधातीतो मेधातीतो वादातीतः भावातीतो भोगातीतः पायाद्विष्णुर्जायोपेतः मानातीतो गानातीतो ज्ञानातीतो ध्यानातीतः नानातीतो भानातीतः पायाद्विष्णुर्जायोपेतः ब्रह्माधीशो भर्गाधीशो पाकारीशः सर्वाधीशः देवाधीशो देहाधीशः पायाद्विष्णुर्जायोपेतः अन्ने कोशे प्राणे कोशे स्वान्ते कोशे ज्ञाने कोशे नन्दे कोशे शायी मायी पायाद्विष्णुर्जायोपेतः मन्त्राधीशस्तन्त्राधीशो यन्त्राधीशः कालाधीशः ज्वालाधीशः सूर्याधीशः पायाद्विष्णुर्जायोपेतः भक्त्यागम्यो विद्यागम्यो मूर्त्यारम्यः कीर्त्यारम्यः भक्ते भृत्यो भावे मर्त्यः पायाद्विष्णुर्जायोपेतः जीवैर्भारेण्यस्ते धीरैः कामी स्वामी कम्पायुक्तः औत्सुक्यात्तम् सोढुम् यत्तः पायाद्विष्णुर्जायोपेतः क्षीरे नीरे नद्यास्तीरे मध्ये मेध्ये वाद्ये खाद्ये वीरे वादे वासि भासि पायाद्विष्णुर्जायोपेतः अग्नौ सूर्ये आर्ये कार्ये वाते मेघे जाते वर्षे हर्षे घाते नद्याम् तिष्ठन् पायाद्विष्णुर्जायोपेतः गोभिर्गोपैर्गोपीग्रामैर्गोत्रा दृष्टे स्रातुम् वीतः भक्ते भक्ते भक्तो रक्तः पायाद्विष्णुर्जायोपेतः ज्योत्स्नारामेयम् यः कुञ्जे रासे लास्ये हास्ये दास्ये रक्तः पत्स्यारन्तुम् सक्तः पायाद्विष्णुर्जायोपेतः श्रावम् श्रावम् वेणूनादम् भावे भावम् याचे सत्यम् इत्याचष्टे गोपीश्यामा पायाद्विष्णुर्जायोपेतः नित्यप्रीतो मुक्तप्रीतः सक्तप्रीतः सत्यप्रीतः भक्तिप्रीतो मुक्तिप्रीतः पायाद्विष्णुर्जायोपेतः कालाधारो लोकाधारो वेलाधारो मूलाधारः भूताधारः सर्वाधारः पायाद्विष्णुर्जायोपेतः श्रुत्याधार स्मृत्याधारो वृत्त्याधारो भक्त्याधारः नरत्याधारो मुक्त्याधारः पायाद्विष्णुर्जायोपेतः हेमातीतः प्रेमातीतो व्योमातीतो भूमातीतः वीशम् कीशम् मेषो ईष्टे पायाद्विष्णुर्जायोपेतः चित्ते 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 रूपम् ध्यात्वा सोऽहम् धूत्वा मोहम् त्वामेवान्ते सन्तम् याचे पायाद्विष्णुर्जायोपेतः कीर्ट्या धृत्या दृष्ट्या सृष्टाम् नीत्या रीत्या प्रीत्या पुष्टाम् विद्युन्मालाम् नत्याजुष्टान् सेवेद्योतम् पायाद्विष्णुः। इति श्रीपरमहंस परिवराजगाचार्य श्रीमुष्णमाण्डवम् श्रीरङ्गरामानुज इति कृतम् श्रीविष्णुरक्षास्तोत्रम् सम्पूर्णम्।